इमानि भयं भन्ते भद्रानि सपरिवाराणि भिक्खुसंघस्स ओनोचयाम साधुनो भन्ते भिक्खुसंघो इमानि भद्रानि सपरिवाराणि पतिकन्हातो अम्हाकं दीघरत्तं हिताय सुखाय
साधु।